ओके, कः अद्यतन सुभाषितं पठति?
I can read Nalini.
ओके,
नलिनी दलवत्तरलं जीवनमतिशय चपलं क्षणमपि सज्जनसङ्गीतरेक भवति वातार्णे नौका.
उत्तमम्. ओके, पदच्छेदं पठति वा?
नलिनी लोटस्, दलः पेटल्, गत गान् ओवर्, जलवत् लैक् वाटर्, तरलं मूविङ्ग् हियर् अण्ड् देर्, तद्दत् लैक् दट्, जीवन् लैफ् अतिशय एक्स्ट्रीम्लि, चपलं अन्प्रिडिक्टबल्, क्षणमपि ईवन् फार् ए मोमेण्ट्, सज्जन् गुड् पीपल्, सङ्गति कम्पनी, भव् वर्ल्ड्ली एक्सिस्टेन्स्, अर्णव् ओशन्, तरणे स्विमिङ्ग्, नौका बोट्.
सम्यक्. ओके, अर्थं वदति वा, प्रयत्नं करोति वा?
I can try. Good people, company with good people is like a lotus flower in a water.
ओके, अस्तु, उत्तमम् उत्तमं महोदय, सम्यक्. सो बेसिकलि दिस् वन् मीन्स् सो वन् अ वाटर् ड्राप् फाल्स् आन् अ लोटस् पेटल्, यु डोण्ट् नो वेर् इट् गोस्, इट् जस्ट् इट् गोस् डौन् बट् देर् डजन्ट् गो इन् अ स्ट्रेट् लैन्, सो अन्स्टेडि. सो like that, and same thing with the ocean waves are unsteady, you know, when the storm comes there are ups and downs. So like that, life is unpredictable, but when you have the company of good people, and when there's at least one wise person in your life to help you, then you can overcome those obstacles. प्रश्नमस्ति वा? उत्तमम्. अग्रे सरामः. म्यूट् मध्ये स्थापयतु कृपया. ओके, अद्य गृहपाठं पुनस्मरणं, क्षम्यताम्. ओके, गृहपाठं वाक्यानि रचयतु इति आसीत्, तत् पश्यामः. तदनन्तरं पुनस्मरणं करिष्यामः. तदनन्तरं विभक्तिवल्लरी अस्ति. गतसप्ताहे गृहपाठमासीत् वाक्यानि रचयन्तु, नूतनशब्दः उपयुज्य वाक्यानि रचयन्तु इति आसीत्. कः वदति?
अहं वदामि.
अस्तु, वदतु महोदय.
अहं हरेः वस्त्रं प्रक्षालयामि. ऐ एम् वाशिङ्ग् दि क्लोत् आफ् हरि. हरि पुल्लिङ्गम्.
ओके,
नेक्स्ट् वन् इस् अहं कविं पाठयामि. ऐ एम् टीचिङ्ग् दि पोयट्. कवि इस् दि पुल्लिङ्गम् अगेन्. अहं मुनिनां मुनिना सह गच्छामि ऐ एम् गोयिङ्ग् वित् दि मुनिस् अगेन् मुनि इति इकारान्तपुल्लिङ्गो
ओके उत्तमं
ओके ओके
उत्तमं महोदय ओके सो ऐ लैक् द सेण्टेन्सस् you didn't have to write in the other vibhaktis, but very good job. Uttama. Okay. Itopi, kahava, kava, vadati, va?
Aham vadami, bhagini.
Astu, vadati, bhagini.
Marge vayam dve dhenavaha pashyamaha. Pita vastuni krinartham apanam gacchati. Mama dve bhrataraha santi.
ओके भ्रातरौ आगच्छति इति अहं चिन्तयामि द्वौ भ्रातरौ
इति
ऐ थिङ्क् यु केन् से भ्रातरद्वयम् इति अपि सम्यक् उत्तमं वाक्यानि भगिनि उत्तमम् ओके इतोपि सन्ति वा वाक्यानि कोऽपि ओके अस्तु ओके पुनस्मरणं करिष्यामः अहं निमिषद्वयं ददामि तदनन्तरं वदामः
What happened? There is no sound at all?
Yeah, I'm also not able to hear any sound.
No sound.
We have to do class work. Same like last week.
Yes, I'm giving 2 minutes. Just correct the sentences. And then we'll discuss after 2 minutes. सर्वेभ्यः म्यूट् मध्ये स्थापयतु कृपया अस्तु इतोपि समयः आवश्यकं वा डू यू नीड् मोर् टैम्
नो
यस् कपल् आफ् मिनिट्स् प्लीस्
ओके ओके ऐ विल् गिव् मोर् टैम् अस्तु इतोपि समयः आवश्यकं वा
न
ओके अस्तु ओके प्रथममस्ति नृपः गजः आगच्छति किं भवति
गजेन आगच्छति
उत्तमं गजेन आगच्छति नृपः इत्युक्ते किं
किं
किं उत्तमं द किंग कम्स् बै एलिफेण्ट् उत्तमम् ओके तदनन्तरं सः नाम रामः
तस्य
नाम रामः
उत्तमं तस्य नाम रामः
एनीबडी केन आन्सर् आर् यू विल् काल्
एनीवन् केन आन्सर्
ओके थैंक यू
ओके आपणिकः तुला तोलयति
तुलया तोलयति
उत्तमं तुलया तोलयति महिला छुरिका कर्तयति उत्तमं छुरिकया उत्तमम् एषः ग्रन्थालयः अस्ति कृपया ब्लाङ्क् वदतु शनैः अभ्यासपुस्तके वयं पठितवन्तः शनैः उच्चैः शीघ्रं मन्दम्
मन्दम् आल्सो ओके
I was looking for Shanehi. I mean, if you're in the library, then they tell you to stay quiet. So, Kripaya, speak quietly like that. Okay. Astu. 145 Katham Vadati.
Padona Dvayam Vayam Kadamaha.
Okay.
Padona Dvivadane. Padona Dvivadane.
उत्तमं पादोनद्विवादने वयं खादामः पादोनद्विवादने सम्यक् ओके अद्य मङ्गलवासरः ब्लाङ्क् परश्वः
गुरुवासरः
सम्यक् मङ्गलवासरः इत्युक्ते किं
ट्यूस्डे
गुरुवासरः उत्तमम् ओके हे मित्रं कुत्र गच्छति
हे मित्र
ओके रूपस्य नाम किं
हे मित्र
उत्तमम् ओके नारिकेलवृक्षः उन्नत अस्ति उन्नतः अस्ति ओके देवालयस्य परितः प्राकारः अस्ति
देवालयं परितः
प्राकारः अस्ति
उत्तमं देवालयं परितः प्राकारः ओके अवगच्छति वा
एकं प्रश्नम्
अस्तु वदतु महोदय किञ्चित् उच्चैः वदतु अहं न शृणोमि
सो नम्बर् 8 हे मित्रं कुत्र गच्छति हे मित्रः हे मित्र अच्छा सम्बोधनारूपं
देयर् इस् नो विसर्ग
ऐ थिंक इट् इस् हे मित्र कुत्र गच्छसि हे मित्र कुत्र गच्छसि
It is Napunsaklingam.
Yes, but we haven't learned the Madhyama Purusha, so we'll just keep on Gachyati.
So what is the answer? Hey Mitra?
Hey Mitra, Kutra Gachyati.
Paritaha is surrounding, right?
Yes.
Yeah, it should be Dutiya Vyakti.
Dutiya, Devalayam Paritaha.
ओके अग्रे सरामः विभक्तिवल्लरी अस्ति कृपया म्यूट् मध्ये स्थापयतु ओके प्रथमं ओके ओके नूतनशब्दाः तत्र सन्ति द्वितीयविभक्ति अस्ति परन्तु प्रथमाविभक्ति किञ्चित् पुनस्मरणं करिष्यामः एकनिमेषम् ओके सो वी विल् जस्ट् गो ओवर् द क्विक् बिकास् so not to confuse anyone okay astu harihi asti harihi lingam kim
pullingam
ikaranta va ukaranta va
ikaranta pullingam
ikaranta pullingam uttam sampurnataya vadatu ikaranta pullingah uttam ओके हरिः बहुवचने हरयः हरयः उत्तमम् लिङ्गं किम् इकारान्त पुल्लिङ्गं बहुवचने कवयः सम्यक् ओके लिङ्गं किम्
ऋकारान्तस्त्रीलिङ्गं
बहुवचने किं भवति नो ऋकारान्त स्वसृ
Oh, how would you distinguish?
What is Swasa?
Sister. Swasa, sister, yeah, sister. It's difficult to distinguish. I think you just have to use the dictionary. But there are some common words like pita, mata, or pita is pullingam. But Mata is Rikaranta Strilingam.
Oh, so no, we know by practice only.
Yeah. Mm-hmm.
Okay.
There are only a few words like that.
I think all relations are Rikaranta, like Bharatri, Pitri, Matri, maybe Dishwasri.
No, they're not all relations. They could be like Karta or Yodha. Like that. Okay. So, okay. Swasa kim bhavati bahuvachane?
Swasaraha.
Swasaraha. Kim bhavati?
Swasaraha.
Swasaraha. Uttamam. Okay. Kavihi uttamta. Titihi.
Ikaranta strilingam.
Ikaranta strilingam. Bahuvachane? तिथयः तिथयः प्रश्नमस्ति वा
स्थिति
What is the question?
The tithi is small or big E?
Ikaranta, it's small.
Small E and feminine.
Yes. Ikaranta strilingam is ankani, lekhani, nadi. So this is Ikaranta strilingam. Okay. ओके गुरु
भगिनी एकं प्रश्नमस्ति केन् यु गो बेक् मो स्वसा नो श्वसा इट् इस् अ ऋकारान्त् and Rukarant is Matara as well, isn't it? So the Prathama Vibhakti Bahuvachan would be Mataraha. And I thought Swasa would be Swasaraha. Swasa.
Swasaraha.
Yeah.
Swasaraha.
Swasaraha. Swasa only. Not Swasaraha. You know.
Mataraha, Swasaraha.
Oh, oh. Oh, Samyak. Akshametam. Swasaraha. Good catch. Swasaraha. Swasaraha. Mataraha, Swasaraha.
Dhanyavad. Dhanyavad.
Okay. Okay, Guruhu. Lingam
kim? Ukarant pullingaha.
Ukarant pullingaha. Guravaha.
Guravaha. Ukarant pullingaha. Guravaha.
Vastu.
Vastuni.
Ukaranta napumsakalingam.
Ukaranta napumsakalingam. Uttamam.
Vastuni.
Vastuni. Vastuni. Uttamam.
Yodha. Yodha. Akha.
Rika.
Rukaranta.
Rukaranta
Yodha
Pullingaha.
Pullinga.
Okay. Rukaranta Pullingaha Bahuvachane.
Yodharaha.
Yodharaha.
Yodharaha. Yodharaha. Yodharaha.
It is Ikaranta. Ikaranta Pullinga Shabda.
Ikaranta Pullingaha. ఇకారాంత పుల్లింగ బహువచనే
అతిథయ
అతిథయ అతిథయ సమ్యక్
కెన్ వి గో బ్యాక్ టు సెంటెన్స్ లైక్ టు వన్ మోర్
మోహన్ మధ్య కించిత్ ఉచ్చైః వదతు ఐ యామ్ నాట్ ఏబుల్ టు హియర్ యు డు యు హావ్ హెడ్ ఫోన్స్
Yeah, you know,
I can't. Or can you connect to your phone?
Yeah.
Your cell phone?
Yeah, yeah. Okay. Can you go back
can you repeat that?
Can you go back to Yodha? Yeah, what is Yodha?
Soldier.
How to hear, Mom?
Warrior.
Warrior. So fighter instead of fighter.
No, no. Oh, lingam and the akaranta or your what is that?
Rukaranta pullingaha.
Rukaranta pullingaha.
Rukaranta pullingaha. Yodhru.
Yodhra.
Mahodayaha.
Yeah. Ask yes.
Yeah. Okay. హరి హరి
ఇకారాంత పుల్లింగ హరయః
హరయః
ఉత్తమ ఇకారాంత పుల్లింగ హరయః
మతి
మతయః మతి
ఇకారాంత స్త్రీలింగ మతయః మతయః
ఏకం ప్రశ్నం
అస్తు అస్తు మహోదయ
లైక్ యోద్ధా యు సెడ్ ఈజ్ లైక్ పితా రుకారాంత పుంలింగ వాట్ ఈస్ ద రూట్ వర్డ్
యోధృ యోధృ జాను
Yanu, it is
Ukaranta Pullinga.
Ukaranta Napumsakalingam.
Napumsakalingam. Januni.
Ukaranta Napumsakalingam. And how you can know that is that Guru who, it has the Visargaha after Guru. But Janu is just Janu, not Janu who. Okay, so if it doesn't have Visargaha, then Napumsakalingam.
Napumsakalingam, okay.
Napumsakalingam.
సో జాను ఉకారాంత పుల్లింగ క్షమ్యతాం నపుంసకలింగ Januni. Okay. Danuhu, Nutana Shabda Asti.
Danu is a Stilinga Ukaranta Shabda.
Shamatam. Danuhu Pulinga Asti. I think you're taking a brain.
What is Janu?
Me.
Danuhu. Danu is me. Danuhu
Ukaranta Pullingahu
Ukaranta Pullingaha
Dhanavaha
Danuhu
Dhanavaha
Dhanavaha
Dhanavaha Uttama Uttamam
Kave Bhagini,
Kim
the Prashna Masri, Dhenu Shabdaha,
Dhanu,
I'm reading it as Dhenu, sorry, that's why, that's okay, Dhanu. Dhanu means what?
Bow.
Pardon? Bow. Oh, Dhanushya. Yes, Dhanushya. Yeah, I got it now. Sorry.
Ikaranta Srilingaha.
Namati.
Ikaranta Srilingaha.
Dhanuhu means bow and it's Pullingaha.
Yeah, I read it as Dhenu, you know. Sorry.
Dhenuhu is Srilingaha.
Okay.
Pramathi.
Ikaranta
Pullinga.
Pullinga hava napumstakalinga va punaha pashyatu
pramathi.
Visargaha asti va? Napumstakalinga. Visargaha nasti tadartham napumstakalinga.
Pramathi, one more time, how to say? How did you say it's napumstakalingam?
If there is no visargaha, the two dots at the end, then it's napumsakalingam. If there is two dots, the visargaha, then it is pullingam.
Okay.
Harihi, Guruhu, Himapi. Or it could be strilingam. Okay. Pramati bahuvachane?
Pramathini.
Pramathini.
Rajuhu Ukaranta Pullinga.
Srilingam.
Rajuhu Ukaranta Srilingaha. Ukaranta Srilingaha. Bahuvachane?
Rajavaha.
Yeah, I'm thinking. Rajavaha. Rajavaha. Data.
Ukaranta. Data.
Rukaranta pullingaha. Bahuvachane?
Dātaraha.
Like Pitru, Pitaro, Pita, Pitaro, Pitaraha, no, so it is we.
Dātaraha.
Yeah.
Dātaraha.
I think this might be like
Kartha.
So Dātaraha. Maybe. Okay. I'll have to check this one. Because for karta is kartaraha. So like that, this might be dhataraha.
Because dhata is also dhataraha. So dhata is also dhataraha.
Yeah. Maybe even swasa might be swasaraha. Okay. I'll write this one down. And then I will check and let you know. Okay. This is the last one. Atiti. Ikaranta napumsakalingam. Bahu achani?
Asti.
Astini.
Astini.
Astini. Astini.
Astini.
Astini.
Okay. Samyak. Astini. Bon. Okay. Avagachati va? Anasmaranam. सम्यक् वा ओके अस्तु विभक्ति वल्लरी करिष्यामः
काव्य मेम् केन् वि अस्यूम् देट् देर् आर् अब्सल्यूट्लि नो अकारान्त नपुंसकलिङ्ग वर्ड्स्
अकारान्त नपुंसकलिङ्गः
देर् आर् नो रैट्
देर् इस् अकारान्त नपुंसकलिङ्गः विच् इस् लैक् पत्रं
करेक्ट् करेक्ट् नाट् आर्
Yeah, ah is...
No, akaranta napunsakalingam, you have vari.
I think there is. There is... No, but vari, I think you learned that later on.
Vari, okay, okay.
Akaranta napunsakalingam,
vari. Nagaram is there.
Nagaram.
Nagaram.
Yeah, but that's a, right? No. I'm asking a, because any word that ends in a, it either goes in the... Rikaranta Pullinga or Rikaranta Strilinga, right?
Actually, I don't think there's no A. It's just Akaranta Pullinga.
Yes, yes, that's what. Thank you, thank you. Yeah.
Yep. Okay, mute madhya sapaya su krupaya. Okay, panchadasham putaha. गच्छतु तत्र द्वितीयाविभक्तिः अस्ति हरिशब्दः गुरुशब्दः पितृशब्दः किमपि ओके प्रथमं पश्यतु इकारान्तपुल्लिङ्गः द्वितीयाविभक्ते हरिम् एकवचनं बहुवचने हरीन् अस्तु वा ओके इन्दु भगिनी इन्दु भगिनी उकारान्त पुल्लिङ्गः द्वितीयभक्ति वदतु
गुरून् गुरु गुरुशब्दः गुरून्
गुरुं
गुरून् गुरून्
धन्यवादः अमिराव महोदय
Yeah, actually you have two versions, Gurum and Gurun, both are correct?
Gurum no. is Ekavachanam, Gurun is Bahuvachanam.
Okay. Yeah, what do you want me to tell?
Rikaranta Pullingaha.
Pitaram Pitrun.
Okay. Karta Shabdaha? Kartru Shabdaha?
Kartaram Kartrun.
Kartun.
Uttam.
Kartaram Kartun.
धन्यवादः धन्यवादः हरिं हरीन् गुरुं गुरून् पितरं पितृन् कर्तारं कर्तृन् सो द वन्स् आन् द लेफ्ट् सैड् देर् आल् एकवचनं द वन्स् आन् द रैट् सैड् देर् आल् बहुवचनम् बहुवचनं द्वितीयविभक्ति ओके सेम् थिङ्ग् फर् स्त्रीलिङ्गम् इकारान्तः मतिः बिकम्स् मतिम् अण्ड् एन् मतयः मतीः मतीः फोर् बहुवचनं द्वितीयविभक्ति अण्ड् देन् धेनुः बिकम्स् धेनुम् अण्ड् देन् बहुवचनं धेनवः धेनुः धेनवः धेनुः मातरं माता मातरं मातरः मातृः मातरः मातृः नपुंसकलिङ्गे दधि दधीनि मधु मधूनि समानमेव सो स्टेस् द सेम् नपुंसकलिङ्गे इट् स्टेस् द सेम् इन् द्वितीयाविभक्ति ओके अवगच्छन्ति वा
एकनिमिषम् अस्ति प्रश्नमस्ति
अस्तु अस्तु
ऋकारान्त पुल्लिङ्गः अहं जयरामन् वदामि
वदतु
श्रुणोति वा महोदय ऋकारान्त पुल्लिङ्गः पितरं बहुवचनं किम्
पितरः
पितृन् आर् पितृ
पितृन्
बहुवचनं
द्वितीय बहुवचनम् इस् पितृन्
पितॄन् ह्रस्व उकारं नयि दीर्घ उकारं मातरं मातरं मातृ भगिनी किं वदति दीर्घ दीर्घ उकारान्तं पितृ मातृ बस्
धन्यवादः C's underneath, so Kartrun, so there's two C, so it's Kartrun, you have to really stress it.
Okay? That is the Ru form which we very rarely see.
Yes, that's the one. Okay. Uttam, Uttam Prashnaha. Okay. Koshtake, Koshtakam Upayujya, Udamaha. So, Udaharanam Asti, Ravihi. कृपया म्यूट् मध्ये स्थापयतु अस्तु धन्यवादः ओके रविः पुल्लिङ्गम् अस्ति एकवचने रविं तदनन्तरं बहुवचने रवीन् इति अस्ति प्रथमं प्रतिमा भगिनी प्रतिमा भगिनी अस्ति वा
yeah.
Okay, can you do the first one? Pratamam karoti vav.
Bharavihi. So, Bharavim.
Bharavim, bahu achane?
Bharavihi.
Bahu achane?
Bharavihi.
Pullingam asti.
Bharavin.
Bharavin. Bharavin. उत्तमम् अर्थं जानाति वा
नो
ओके
भारवीः इस् पोर्टर्
नो सन्
रविः इत्युक्ते सन् भारवीः अपि सन् इति अहं चिन्तयामि
सन्
ओके सन्
भारवीः सन्
Yes.
Yes. Okay. Kaha spoken Sanskrit Dashayati? Can someone see spoken Sanskrit?
I didn't get that.
Okay. Basil is oh, Basil iti spoken Sanskrit Madhya asti. परन्तु बारविः विल् कीप् इट् अस् सन् द सन् बारविः सन् अस्तु तदनन्तरं मोहन् महोदय
भगिनी
अस्तु वदतु इन्दु भगिनी
भगिनी भारवि इन् मै डिक्शनरी इट्स् ए सीक्रेट् बसु बसु भारवि
That's Bharavi, but Bharavi, he may be different. Okay.
Shauri, he is. Can I say the Shauri, he?
Mohan Madhya, am. Shauri, he?
Okay. Shauri, he is Ekavachanam. Dvitiya Vibhakti is Haurim. Shaurim. And Bahuvachanam is Shaurin.
Uttama. Shaurim, Shaurin.
Shaurim, Ma and Na. Na is Bahuvachanam. Ma is Ekavachanam.
Uttamam. Astam Janativa.
Shaurim, is it Shaurya? Is that the same meaning?
Lord Krishna.
No?
Krishna.
No, Bhagini.
स्पोकन्स्थाप्यमध्ये किं वदति वैफ् आफ् सन् वा
भारवी ऐ एम् स्टिल् स्टक् एट् भारवी भारवी
दट् वर्ड् इस् नाट् देर् इन् द डिक्शनरी फार् सम् रीज़न् अण्ड् द वर्ड् फार् पोर्टर् इस् भारवाह
नो भारवी इन् दिस् इस् बाजु
या दट् इस् दीर्घं दो
दट् इस् भारवी या नाट् भारवी
दट् इस् भारवी इस् बाजल या But that the word is not there in the dictionary, online dictionary at least.
Yeah.
Okay, I will start that and I will ask. I will see what it is. Okay. Shaurihi artham kim? Kaha janati?
One.
Not Krishna.
Krishna. Okay. Yeah. Krishna eva. Uttam.
Excuse me. I found the word meaning Bharavi. The Bharavi is bow and string. So Bharavi, the person who has got bow and string, is called Bharavi. It's in the Sanskrit dictionary.
Okay. Okay. Bharavi itikte kim? What is it?
The person having bow and string.
Okay. Person having.
Bharav means bow and string. Bharav means bow and string, and Bharavi, one who is holding the bow, is Bharavi.
Okay, one who holds the bow is Bharavi.
It may not be Bharavihi.
Bharavihi, that is the one here.
Okay, I think that's the closest one to Bharavihi, so we can keep that. Okay. I'll still check that one. Okay, Agre Saramaha. Sukshma Bhagini?
Sharadhi. Pullinga Shabdasti. Sharadhim. And Bahuvachanam. Sharadhin.
Uttamam. Artham Janateva?
Na Janateva.
Okay, kaha janati?
Ocean or sea.
Oh, the ocean, okay.
Tadevava, okay. Astu. Tanantaram. Gopal Mahadeya?
Paritihi.
So which one beginning?
Chaturtham, number 4.
Number 4. Sumatihi. Stri Ikaranta Strilingaha.
Paridihi.
This should go like Matihi.
No. Matihi is strilingam asti. Paridihi pullingam.
Paridhin. Okay. Paridhim paridhin.
Uttamam. Okay. Paridihi atam janati va?
Yes.
Circumference. Surrounding.
Boundary.
Okay. Uttamam.
Boundary or circumference?
Yeah.
Uttamam. Okay. Sharadhi, in spoken Sanskrit, it says quiver, like arrow case. So I think that might be better than ocean.
Yeah.
So where you put your arrow, the arrow case, quiver is Sharadhi.
Yeah, Sharadhi is quiver.
Sharadhi, quiver. Okay. Astu. Shanti Bhagini, Swagatam.
Sumati. Sumati is Sri Lingam. Sumatim.
Sumatihi.
Uttamam. Uttamam. Sumatihi. I mean Sumatim. Sumatihi. Sumatim. Sumatihi. Sumatihi nama eva aham chintayami. I think Sumati is just the name.
Yeah, I think it means one with a good thought.
Good buddhi. Yeah.
Good buddhi. Mati is mind, good thought, good intention, like that.
Okay, Sumatihi. Okay, uttama. Narasimha Mahodaya?
Varanasihi, Sri Linga. Varanasim.
Varanasim.
Varanasi.
Okay, Varanasim.
Varanasihi, I think.
Samyak. Varanasim, Varanasihi.
Nasihi.
Varanasim, Varanasihi. Okay, Varanasihi, kimapi artham asti va?
Kashi Nagaram.
Kashi Nagaram.
Proper name.
Astu. Chitra Bhagini?
Bandhu, Bandhum, Bandhun.
Utta. Bandhum, Bandhun. Artham kim?
Relative.
Relative. Samyak. Astu. Sheila Bhagini?
Viru, Pulinga Sabdaha. Virum, Ekvachan. Virun. Bahuvachan.
Okay. Birum, birun. Birum, birun. Mam, artham kim? Kapaya mit madhye sthapayatu na vadati chet.
Covered.
Okay. Okay, fearful, coward. Kimapi. Astu va.
Covered, you said?
Yes.
Mm-hmm.
Okay. Jairam Mahodaya?
Ambini. Shrota. Shrota Pullingam. So. Shrotan.
Okay. I think this one is like Karta. So, Shrotaram, Shrotran. Shrotaram, Shrotran.
Vatru. Just like Pitru.
Yes, just like...
Shrotaram, Shrotrun. Okay.
Shrotaram,
Shrotran. All right. Shrotaram, Shrotrun.
Okay.
That's two. Dhaniwala.
Okay, Uttam. The one
next
who...
Next one also like that only, Mata.
Okay. Indu Bhagini?
I think, is it not Shrotaram and Shrotrana Shrotaram?
Shrota.
This one is like Karta, I'm thinking, because Karta, Data, they're all like action verbs, I mean action
Pita.
Things to do. Like Pita, Mata, those are all Banduhu, those are all relatives. So Karta, Shrota, Data, those are all action, right? Like Shrota, the one who listens, Data, the one who gives, Karta, the one who does.
Does. Okay.
Does that make sense, Mahodaya?
Yeah.
Mohan Mahodaya?
Yeah, yeah, sort of, it says Pumlinga and this is Rukaranta Pumlinga. I took it like Pitru. So,
okay. Yes. Same thing. Just take it like Karta instead of.
Karta. Okay.
Karta.
Kartaram Kartrun.
Okay. Astu. Agresaramaha. Indu Vagini. Indu Bhagini? Astu. Amira Mohdaya?
Which one?
Mata.
Mata, Mataram, Matarun, Matrun.
Punaha Pashyatu, Matar, Mataram?
Matrun.
Matrun, va? स्त्रीलिङ्गे ऋकारान्तशब्दः स्त्रीलिङ्गे मातरं मातृः अस्तु ओके अन्तिमं प्रतिमा भगिनी
मातरः आल्सो करेक्ट् रैट् फार् पुलिङ्ग मातरः
न
Accusative, I mean, Dvitiya is Mataram, singular, and Bahuvachan is Matru. So, Rakar, two Rakar comes after Matru.
No, it is.
It's different, like, it's not Pitrun, Matru comes. You can refer to the table. It is Mata, Matarau, Matarau, Mataram, Matarau, Matru.
There is also other option here, Mataraha.
Mataram, Mataha.
What do you see Mataraha?
It's on this table, the, what is it called, declination?
Oh, is it in this Vaishishtam table?
Oh, not in this one. I have different one. Different from other class.
Yeah.
Use this one in class.
Yeah.
Okay, let me see in this one.
See here. Just take Matru.
Yeah, it's fine.
Mataram Matruh.
Yeah, see here. One. Mataraha is also right and Matru, see, second. This is Mataram, Matarau, Matruhu, see here.
Mm-hmm.
Matruhu, this is Dvitiya. Mata, Matarau, Matara is Prathama. And Mataram, Matarau, Matruhu. So two Rakar are Ruk after Ta and then Visarga. So this is different. This is the way the feminine is different. Rukaranta feminine is different from Rukaranta masculine. Only here there is a difference in feminine and masculine. Otherwise, the whole table is same. Pita, Pitaram, Pitarau, Pitrun becomes, but here Mataram, Matarau, Matru.
Yes. Okay, Sheila Bhagini, you should stick with this one.
Yes.
Because I never heard of the other one.
Mm-hmm.
Okay. Uttamam Prashnaha. पिता कः करोति प्रतिमा भगिनी वा
पितरम् इस् एकवचन एण्ड् पितृन् इस् बहुवचन
उत्तमं पितरं पितृन् ओके
पितृन्
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 अयन् दीर्घ विकारान्तम्
It sounds like Mohan Modia is saying like Pitrun far away because I can't hear him.
Yeah, Pitrun. Yes.
Pitrun. Uttamam. Samyak. Okay. Would anyone like to make sentences with the words we just went over? Vakyatrayam. Let's make three sentences.
पितरौ वन्दे पार्वती परमेश्वर ऐ
वन्दे मातरम्
उत्तमं वन्दे मातरम् अपि उत्तमम्
अहं पितरं जलं ददामि
उत्तमम् अहं पितरं जलं ददामि इतोपि एकं वाक्यं न वदति
बन्धुं पुस्तकं ददामि
पुनः वदतु क्षम्यताम्
अहं बन्धुं पुस्तकं ददामि
सम्यक् अहं बन्धून् पुस्तकं ददामि
अहं पितरम् औषधं ददामि
उत्तमम्
अहं पितरम् औषधं ददामि
उत्तमम्
अहं श्रोतारं शृणोमि
उत्तमम् ओके सम्यक् सम्यक् वाक्यानि ओके इदानीं तृतीयविभक्तिः करिष्यामः वा ओके तृतीयविभक्तिः करिष्यामः द नेक्स्ट् सेक्षन् फोर् ऐ वुड् लैक् यु टु डू इट् फोर् होम्वर्क् गृहपाठं करोतु ऐ ऐ अस्ति गृहपाठे करोतु ओके तृतीयविभक्ति
So the homework is do the second in the Tritiya Vibhakti?
No. The rest of the Tritiya Vibhakti. So I 1 through 10. And if you can and if you want to, I 1 through 10.
Oh, so do both are homework?
Yes, 16.
Oh, then you start 17. The Tritiya Vibhakti, you mean?
Yes, now I'm starting Tritiya Vibhakti. Now okay. We are going to skip that and go to Tritiya Vibhakti.
Okay.
Gata saptahe vayam Tritiya Vibhakti padhitavantah. Sadhanam ityukte kim?
Instrument.
Instrument. Uttamam. So, udaharanam asti. Aham karavastrena mukham majayami. With the handcloth, I wash my face. Okay, so for instrumental use, you know, using the objects, sadhanam, you use Tritiya Vibhakti. And then we learned that we also use it for bhava suchakam. So bhava suchakam means emotions. For emotions, I did this happily or angrily or, sadly. Kimapi. So the L-Y, Lili, so those are all Tritiya Vibhakti. Okay, so we did from 1 through 10. Gata Saptahe Ekataha Dasha Pariyantam Kritavantaha Ekadasham Karishyamaha Pratima Bhagini Vattiva Nasti. Okay, Sukshma Bhagini
लेखनी
कुत्र अस्ति
एकादशम् ओ सोरि देट् वन् ओके कष्टं यावत् वा भवतु भवान् सहनया कार्यं करोतु
उत्तमं भगिनि अर्थं जानाति वा
कष्टं यावत् वा भवतु इफ् डिफिकल्टीस् अरैस् यु डू वर्क् वित् टालरेन्स् दट् रैट्
Very good, Uttama. So, whatever, difficulty, so yavat, however much difficulty comes, do it all. Uttama Bhagini.
Mm-hmm. Thank you.
Okay. Gopal Mahodaya?
Yes,
Sorry, Bhagini.
Dvadasham. Dvadashamam. Etam Vartam.
One second. Which one, Bhagini?
Page 19. Dvadashamam.
Etam Vartam. Shrutva. Sa. Dash Nishvasitavati Truptihi. Etam Vartam Shrutva Sa Truptim Nishvasitavati. I don't know what Nishvasitavati means.
Tritiya Vibhakti.
No, no, Truptim.
Tritiya Vibhakti Kim Bhavati.
Truptim.
No. Truptim Dvitiya Vibhakti. Tritiya Vibhakti Truptiya Uttam.
Truptiya. What is Nishvasitavati?
Deep breath. Take deep breath. Nishvasitavati.
Having heard this news, she breathed with a sigh of relief.
Yes. Okay. Uttama. Astu. Shanti Bhagini?
Adhyapakasya Tarjanam Shrutva Sa
Najaya
म्यूट् मध्ये स्थापयतु न वदति चेत्
सारि
फोर् द अदर् पीपल् प्लीस् टी आन् म्यूट्
अध्यापकस्य तर्जनं श्रुत्वा सा दज्जेन शिरः अवनमय्य चितवती.
ओके. लज्जेन वा?
लज्जया. लज्जया.
उत्तमं. लज्जया. अर्थं वदति वा?
हेविङ्ग् हर्ड् दि ऐ थिङ्क् तर्जनम् इस् स्कोल्डिङ्ग्.
उत्तमं.
शि बेण्ट् हर् हेड् वित् शेम्.
उत्तमं.
मय्य इस् विदौट् सेयिङ्ग् इट् आर् सैलेण्ट्लि. डस् इट् इस् दट् वाट् इट् मीन्स्? वाट् इस् अवनमय्य? Chitavati is short, but what is Avanamaya? Is it bent? What is it?
Mean? Avanamaya.
Spoken Sanskrit says bowed down.
Yeah.
Mm-hmm. She bent her, bowed down her head in shame, I guess. Stood with her head bent in shame.
Yeah.
Okay. Uttama.
Bhagini, Pratipadikam for Tripti. Sorry, Lajja, what will it be? Lajja, Lajja, is it an Akaranta Sri Linga, isn't it?
No, so Lajja, okay, you can say Lajja Sri Lingam, but Lajja here is an adjective. All of these are adjectives. So it just depends on what the subject is. So here sa is strilingam, so lajja would also be strilingam.
Yeah. So it would be strilingam for it would go like Rama, wouldn't it?
Yeah. Mm-hmm. Yes.
So then the tritiya vibhakti bahuvachanam, is it going to be bahuvachanam?
No, not bahuvachanam, just Ekavachanam.
Ekavachanam, sorry. Yeah, I'm with you now.
Okay, Utta. Okay, Narasimha Mahodaya? 14?
Yeah. Kaha Saha Iti Govindaha Dash Ramam Prashtavan. Kaha Saha Iti Govindaha Kutu Halena Ramam Prashtavan.
उत्तमं. सम्यक् अर्थं वदति वा?
kaha saha, where is Govindaha iti?
Where na? Tat kutra saha. Kaha saha iti kim?
Kaha saha iti Govindaha kutuhala. With curiosity, looking for Govinda?
Uttamam. Okay. Kaha saha is who is he?
Who is he? Iti Govindaha kutuhalena is looking for...
Prashtavan ityukte kim?
He asked.
Asked.
Kutuhalena should be with excitement.
Uttam paratu artham, artham kim? Prashtavan. Aham prashnam prachavan.
He asked. Past tense. Past tense, he asked.
Ask.
With curiosity, he has asked.
Aam, samyak. Tadeva.
Kutuhala means excitement, no?
Kutuhala is curiosity.
Curiosity. I think curiosity.
Yeah.
Maybe also with eagerness.
Yeah, it is not excitement, it is curiosity.
Or with interest.
With interest. Kimapi. Okay. Chitrabhagini?
Paradayam prapya saha nirashataya pratigatavan. Having lost, he went back with despair.
Samyak. Okay.
Is it nirashatena or nirashataya?
Nirashataya.
Nirashataya.
Okay. Astu, prashnam asti va? Bhavasuchakam prashnam? Okay, astu. Agresara maha. Vimshatihi putaha. Okay. Indu bhagini patati va?
सः इति शब्दः यत्र भवति तत्र तृतीया विभक्ति भवति. उदाहरणार्थं पिता पुत्रेण सह नगरं गच्छति. अभ्यासः वाक्यरचनार्थं सहायकानां त्रयाणां शब्दानाम् आधारेण वाक्यानि रचयत. लक्ष्मणः रामः वनम्. लक्ष्मणः रामेण सह वनं गतवान्.
उत्तमं, धन्यवादः भगिनि. ओके, वयं सर्वे सः इति शब्दः स्मरामः. सो वि शुड् नो वट् सः मीन्स्. सः इत्युक्ते किं?
वित्.
वित्.
उत्तमं. सो एतत् सरलम् अस्ति. सो दिस् शुड् बि ईज़ि. ओके, एमिरा महोदय प्रथमं करोति वा?
रविः मित्रेण सह नगरं गच्छति. गतवान्.
ओके, उत्तमं. मोहन महोदय?
यस्.
द्वितीयं गोपालः.
गोपालः शिवः सम्भाषणं. शिवेन सह सम्भाषणं
करोति.
म्यूट् मध्ये स्थापयतु कृपया. इन्दु भगिनी म्यूट् मध्ये स्थापयतु.
गोपालः शिवेन सह सम्भाषणं करोति.
उत्तमं, सम्यक्.
इदत् कृतवान्
किमपि? We're just making sentences. So kritavan, karoti, all fine. Okay, astu. Sukshna bhagini?
Govindah bhavati charcha. Govindah bhavati.
इकारान्तस्त्रीलिङ्गम् इति चिन्तयतु
भवत्या
उत्तम
ओके गोविन्दः भवत्या चर्चा कृतवान्
उत्तमं गोविन्दः भवत्या चर्चां कृतवान्
ओके
क्षम्यतां भवत्या सह चर्चां कृतवान्
चर्चां कृतवान् ओके What does bhavati here mean?
Bhavatiya means with you.
Oh, the you is there, is it?
Yes. Bhavati, bhavan bhavati. Iti.
Govinda.
Okay. Okay. Gopal Mahodaya?
Yeah.
Mata?
माता पुत्री बन्धु गृहं माता पुत्रीं सह पुत्र्या सह
उत्तमं सम्यक् माता पुत्र्या सह बन्धुगृहं गतवती ओके
एकं प्रश्नं वन् क्वेश्चन्
आं वदतु महोदय
गोविन्दः भवत्याः सह चर्चां करोति रैट् इट्स् नाट् चर्चा इट्स् चर्चां करोति
भवत्या सह चर्चां करोति चर्चां बिकास् इट्स् द आब्जेक्ट् आफ् द सेण्टेन्स्
आर् इफ् यु वाण्ट् टु से आल् पास्ट् टेन्स् देन् कृतवान् इट् विल् बि
ओके शान्ति भगिनी
सः भगिनी कलह सः भगिनयः भगिनया सह कलह करोति
ओके भगिन्या
भगिन्या ओके सः भगिन्या सह कलह करोति
उत्तमं बहु उत्तमम् अस्तु नरसिंहमहोदय
वन् क्वश्चन् इस् इट् कलह और् कलहम्
कलहः
कलहं न
कलहं करोति यस्
कलहं करोति
दिस् वन् मोर् क्वश्चन् भगिनी इट् इस् भगिन्या अन्या और् अन्या
भगिन्या
दिस् न एव भगिन्या
ओके थेङ्क् यु
कः कः भवान् आगतवान् कः भवत सः आगतवान्
ओके कः भवान् किञ्चित् भिन्नम् अस्ति
भवता
उत्तमं भवता भवता सः आगतवान् उत्तमम् ओके चित्रा भगिनी
राजा सैनिकाः युद्धार्थं राजा सैनिकया सह युद्धार्थं
ओ क्षम्यतां सैनिकाः ओके बहुवचनम् अस्ति ओके एकनिमेषं लेट् मी सी इफ् देयर्स् अ चार्ट्
दट् इस् अकारान्त तृतीय पुंलिङ्ग बहुवचनं रामेण रामाभ्यां रामैः
सैनिकैः
सैनिकैः
सैनिकः सैनिकाः सैनिकः बहुवचनम् अस्ति सैनिकः पुल्लिङ्गः अस्ति सैनिकैः
सैनिकैः
राजा सैनिकैः सह युद्धार्थं गतवान्
उत्तमं राजा सैनिकैः सह युद्धार्थं गतवान् उत्तमं क्षम्यताम् अहं ओ क्षम्यतां सैनिका सैनिका स्त्रीलिङ्गमस्ति
सैनिकः सोल्जर् प्लूरल् रैट्
सैनिकः
पुल्लिङ्गं
सोल्जर्
कः
सैनिकाः प्लूरल्
सैनिका इस् पुल्लिङ्गम् आस् पर् स्पोकन् संस्कृत
ओके ओके तदनन्तरं सैनिकैः उत्तमं बहु उत्तमं सैनिकैः ओके क्षम्यताम् अहं न दृष्टवती अतः दिस् आल् एकवचनम् ओके तदनन्तरम् इन्दुभगिनी प्रयत्नं करोतु कृपया
गीतासङ्ख्या प्रवासार्थं सख्या गीता सखयाया सह प्रवासार्थं गतवती
ओके अस्तु तत्र पुनः सखी सख्यः ईकारान्तस्त्रीलिङ्गं बहुवचनम् अस्ति तदर्थं सखीभिः
सखीभिः
सख्यः सखीभिः
सखीभिः सख्य इदानीं सख्य
एकवचनं यस् दिस् इस् बहुवचनं सख्यः बहुवचनं सो बहुवचनं स्त्रीलिङ्गं तृतीया विभक्ति इस् सखीभिः अवगच्छति वा सखीभिः
सखीभिः
ओके अस्तु ओके अमीरा महोदय वैद्यः
वैद्यः अस्वस्थ्या सह सम्भाषणं करोति
अस्वस्था स्त्रीलिङ्गशब्दः अस्वस्था अस्वस्थाः बहुवचने स्त्रीलिङ्गमस्ति
अस्वस्थेभ्यः
I was under the impression that aswastha is a
pullinga
masculine unhealthy person aswastha is like masculine plural yeah. healthy people so the doctor is speaking okay. with all the unhealthy people
okay I think aswastha would be an adjective so aswastai hi then
aswastha bhi hi
पुल्लिङ्गम् आर् स्त्रीलिङ्गम् इट्स् आल्सो वेदर् इट् इस् प्लूरल् आर् वेदर् इट् इस्
पुल्लिङ्गम् अस्वस्थैः अस्वस्थैः परन्तु एतत् एषः अस्वस्थः अस्वस्थैः ओके
हौ डु वि नो वाट् लिङ्गम् इस् देर् इस् देर् एनी वे टु फैंड औट्
बट् ऐ थिंक अस्वस्था okay I think asvastha it could be like chhatra chhatrah
chhatrah
so chhatra chhatrah both in bahuvachana would be chhatrah chhatrah right so then it will be confusing. Avagacchati va, do you guys understand what I'm saying? Chatra, chatraha.
In this case, you're talking, you're saying that it is a noun, not an adjective, right?
No, noun only.
It's a noun, it's a noun, it's a noun. So, aswastaha, aswastha.
Pullingam.
I think it can be both.
Is it pullingam or strilingam?
Pullingam.
It can be both. But here, we're sticking with pullingam.
Pumlingam bahuvachanam, so tritiya vibhakti pumlingam bahuvachanam becomes aswastaihi.
Aswastaihi, yes.
Yeah, like devaihi aswastaihi, bahuvachanam.
Okay, avagacchati va? Are there any questions?
Aam, avagacchati.
Okay. Uttama. Astu. Mohan Mahodaya, antimam karoti va? Meet mante sthapayatu, kripaya.
Kaha bhavatyah. Agachanti. Oh man, okay. Kaha bhavatyah agachanti. Is it kaha? Okay.
Bhavatyah bhavati bhavati bihi.
Bhavati bihi.
Bhavati bihi. Bhavati bihi.
Bhavati.
What does that sentence even mean?
Kaabihi, bhavati bihi.
Bhavati bihi.
Who all is coming with you?
So kaabihi. Kaha is kaabihi.
No. Kaha is a subject.
Okay, amma. Kaha is subject. Okay. Kaha bhavati bihi avagacchanti. Agacchanti.
Agachanti. Okay. Uttam. Kaha bhavati bihi agachanti. Who all are coming with you?
Saha agachanti.
Oh, kshamyatam. Bhavati bihi saha agachanti.
Saha bhavati bihi.
Okay. Okay. Uttam. Prashnam asti va? Kimapi?
That will translate into who all are coming with you all.
Yes, correct.